स्वदेहोद्भूताभिर्घृणिभिरणिमाध्याभिरभितो निषेव्ये नित्ये त्वाम् अहमिति सदा भावयति यः किमाश्चर्यं तस्य तृणयनसमृद्धिं तृणयतो महासंवर्ताग्निर्विरचयति नीराजनविधिम्।